सर्वेषां संस्कृतकक्षायां स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. अत्र अहमेकं श्लोकं वदामि. योजनानां सहस्रं तु सनेर्गच्छेत् पिपीलिका, अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति. इत्युक्ते पिपीलिका मन्दं मन्दं चलित्वा सहस्रं योजनपर्यन्तमपि गन्तुं शक्नोति, परन्तु गरुडः शक्तिमान्, परन्तु सः एकस्मिन्नेव स्थले उपविश्य किञ्चिदपि कर्तुं न इच्छति अथवा कमपि प्रयत्नं न कर्तुम् इच्छति चेत् सः कुत्रापि गन्तुं न शक्नोति. सः यत्र स्थितवान् तत्र एव स्थास्यति. परन्तु पिपीलिका सर्वदा प्रयासं कृत्वा किञ्चित् किञ्चित् चलित्वा बहु दूरं चलितुं शक्नोति. तथा एव वयं पिपीलिका इव प्रयासं कृत्वा किञ्चित् अग्रे सर्तुं प्रयत्नं कुर्मः चेत् कालान्तरेण वयं गम्यस्थानं प्राप्तुं शक्नुमः. परन्तु इदानीम् अस्माकं कार्यमस्ति संस्कृताध्ययनं. यदि वयं सर्वे मिलित्वा नित्यं किञ्चित् प्रयत्नं कुर्मः चेत् संस्कृताध्ययनविषये अपि वयं सफलाः भवितुं शक्नुमः. अतः वयं किञ्चित् संस्कृताध्ययनं कुर्मः अधुना. गतसप्ताहे वयं किं कृतवन्तः इत्युक्ते क्रियापदानां विषये किञ्चित् ज्ञातवन्तः. अहं गृहपाठमपि प्रेषितवती. तत्र विशेषाभ्यासरूपेण दशपदानि दत्तानि, तानि पदानि योजयित्वा वाक्यानि रचयन्तु इति अहं उक्तवती. यदि भवन्तः पार्श्वे वाक्यानि सन्ति चेत् श्रावयन्तु. इदानीं विलम्बेन के के आगतवन्तः अत्र? शैलजा भगिनि केवलं शृणोति वा, नो चेत् भागम् ओढमिच्छति वा भगिनि? केवलं शृणोति. उत्तमम्. अन्ये अपि च 240252811 साका अत्र.
उमा
भगिनी, भवती अपि श्रोतुमिच्छति वा, भागम् ओढमिच्छति वा?
नो, ओन्लि
भवती केवलं शृणोति. ओके, अस्तु भगिनि. अस्तु अस्तु. यदि भवती जानाति चेत् किञ्चित् भागं वहतु. इत्युक्ते किञ्चित् किञ्चित् प्रयत्नं कुर्मः चेत् भाषायां चेदेव वयं भाषायां वक्तुं शक्नुमः. किञ्चित् प्रयत्नं कुर्मः अधुना. शोभ भगिनी, यदि भवती कानिचन वाक्यानि रचितवती चेत् श्रावयन्तु वाक्यानि भवत्याः पार्श्वे.
भगिनी क्षम्यतां भगिनी, मम आरोग्यं सम्यक् नास्ति.
अस्तु अस्तु. नो चेत् भूमा भगिनी, भवती वाक्यानि रचितवती वा? भूमा भगिनी, भवती कानिचन वाक्यानि रचितवती वा? नो चेत् अधुना वयं प्रयत्नं कुर्मः. श्रावयतु भगिनि, श्रावयतु.
सः बालकः कार्यं करोति. अस्माकं गृहे सर्वे मिलित्वा गृहकार्यं कुरु सर्वे गृहकार्यं कुर्वन्ति. सः रामः उपाख्यानं शृणोति. सर्वे देवालये उपन्यासं शृण्वन्ति.
अस्तु.
मम पुत्रः भिक्षुकां धनं ददाति.
भिक्षुकां समीचीनम् अत्र भगिनि, अत्र द्वौ अपि समीचीने एव. अत्र किमस्ति चेत् अत्र भिक्षुकः स्त्रीलिङ्गे, भिक्षुका भिक्षुकः पुंलिङ्गे, भिक्षुका स्त्रीलिङ्गे. समीचीनमेव. यदि भवती भिक्षुकाम् इति वदति चेत् अपि तदपि समीचीनं.
धन्यवादः. ददति ददति चेत् बहुवचनं, बहुवचनं. नर पुरुषाः शाकानि सर्वे ददति.
शाकानि अत्र भगिनि पुनः तदेव वाक्यं वदतु.
नराः पुरुषाः शाकानि सर्वे ददति.
अत्र पश्यतु, अत्र पुरुषाः शाकानि ददति. पुरुषाः शाकानि ददति, एतत् लघुवाक्यं. परन्तु तत्र कस्मै ददति, कस्मै ददति, केभ्यः ददति, तत्र चतुर्थी विभक्तेः आवश्यकता अस्ति. तत्र सम्प्रदाने चतुर्थी इति वदामः इत्युक्ते कस्मै ददाति, केभ्यः ददाति इति प्रश्नम् आगच्छति. तत्र सर्वेभ्यः शाकं ददाति.
ओके ओके.
ददति अत्र भवती बहुवचने वक्तुमिच्छति चेत् तत्र ददति भवति. तदेव वाक्यं पुनः एकवारं श्रावयतु.
पुरुषाः शाकानि ददति. पुरुषाः सर्वेभ्यः धनं ददति.
उत्तमम्. धनं ददति अथवा शाकानि ददति. अनन्तरं
बालकः तस्य पितुर्वचनं शृणोति.
अत्र पुनः एकवारं वदतु तदेव वाक्यं.
बालकः तस्य पितुः वचनं शृणोति.
पितुः वचनं शृणोति. किमर्थं पितुः? सर्वे जानन्ति वा पितुः किमर्थं? भगिनी भवती एव वदतु, विवृणोतु किमर्थं पितुः.
पितुः षष्ठीविभक्ति.
उत्तमम्. प्रथमविभक्तिरूपं किं?
पिता.
पिता शब्दस्य षष्ठीरूपं ऋकारान्तम्. अतः पितुः वचनं शृणोति. उत्तमम्. अनन्तरम्
अध्यापकस्य भाषणं छात्राः शृण्वन्ति.
अध्यापकस्य भाषणं. अत्र पश्यतु, अध्यापकस्य भाषणम्, अत्र भाषणम् इति पदं ल्युडन्तरूपं, ल्यूट् ल्युट् प्रत्ययम् इति वदामः, ल्युडन्तरूपं. उत्तमं वाक्यम्. अनन्तरं
माता शिशुं दुग्धं ददाति.
अत्रापि पश्यतु भगिनि, ददाति इति क्रियापदम् आगच्छति चेत् चतुर्थी विभक्तेः आवश्यकता.
ददाति. ओके ओके. दुग्धं
समीकृत्य वदतु.
माता शिशुं चतुर्थी विभक्ति.
प्रयत्नं करोतु. शोभा भगिनी भवती प्रयत्नं करोति वा? शिशुः इति पदस्य चतुर्थी रूपं किं?
शिशुना.
शिशुना
दुग्धं ददाति.
शिशुना इति
शिशुः गुरुः अस्ति. गुरुः चतुर्थी, गुरवे शिशवे.
उत्तमम्.
ओ धन्यवादः.
भूम भगिनी वदतु, अधुना वाक्यं रचयतु.
माता शिशवे दुग्धं ददाति.
उत्तमम्. उत्तमं वाक्यं. शोभा भगिनी, यदि भवती भवत्याः आरोग्यं सम्यक् नास्ति चेत् केवलं शृणोति चेत् शृणोतु,
न भगिनी, अहं प्रयत्नं करोमि. केवलं गृहपाठं न कृतवती, किन्तु
भूमा भगिनी अधुना अधुना श्रावयतु. इतोपि वाक्यानि सन्ति वा?
आं भगिनि, शुभकामनायाः सूचनार्थं सर्वे पारितोषकानि ददति. सर्वे पारितोषकानि ददति. संस्कृतकक्ष्यां भवतः सहायेन वयं सम्यक् सम्भाषणं कर्तुं शक्नुमः.
संस्कृतकक्ष्या, संस्कृतकक्ष्यायां.
ओ, क्ष्यां, ऐ रोट् वन् मोर् या.
अत्र पुनः तदेव वाक्यं वदतु भगिनि.
संस्कृतकक्ष्यायां भवतः साहाय्येन.
तत्रापि तत्रापि समीकरोतु. भवतः भवतः इति पदं रूपं किं, लिङ्गवचनविभक्तिं वदातु, ददतु.
भवतः प्रथमाविभक्ति.
अत्र भवतः इति भवतः इति पदस्य लिङ्गं
भवत्यः.
अत्र भवती शब्दस्य, भवती शब्दस्य षष्ठीरूपं किं?
भवत्याः. भवत्याः
तत्पदं योजयित्वा वदतु.
ओके ओके. संस्कृतकक्ष्यायां भवत्याः सहायेन वयं सम्भाषणं सम्यक् कर्तुं शक्नुमः.
अधुना समीचीनम्. अनन्तरं
वणिजः व्यापारं सम्यक् कर्तुं शक्नोति.
वणिजः व्यापारं
कर्तुं शक्नोति,
कर्तुं शक्नोति. उत्तमम्. अनन्तरं
वयं प्रतिदिनं भोजनं कुर्मः. सर्वे संस्कृत, वयं संस्कृतश्लोकानि प्रतिदिनं शृणुमः.
अत्र अत्र पश्यतु भगिनि, संस्कृत श्लोकः इति पदं पुंलिङ्गपदम्.
ओ, पुल्लिङ्गम्. ओके, श्लोकाः शृणुमः. ओके,
तत्रापि समीकृत्य वदतु. अत्र शृणुमः इति क्रियापदं कर्मपदं स्वीकरोति, अतः तत्र श्लोकान् शृणुमः.
श्लोकान् शृणुमः,
द्वितीय बहुवचनं भवति.
ओके ओके ओके.
अधुना वदतु.
वयं संस्कृतश्लोकान् शृणुमः.
उत्तमम्. अधुना सम्यक्. अनन्तरम्
अहं पाकशाले कार्यं करोमि.
अत्र पश्यतु भगिनि, तत्तु पदमस्ति पाकशाला.
पाकशालायां
समीकृत्य वदतु पुनः तदेव वाक्यम्.
अहं पाकशालायां कार्यं करोमि.
कार्यं करोमि. उत्तमम्. तावदेव वा? इतोपि वाक्यानि सन्ति वा?
न भगिनि.
उत्तमं, धन्यवादः.
अनन्तरम् ओके.
अस्तु, अत्र वंशीसुधा भगिनी अस्ति.
नमस्ते भगिनि, क्षम्यतां, किञ्चित् विलम्बेन जातः. मम वेब् भग्नः जातः, किञ्चित् प्राब्लम्
अत्र. अत्र पश्यति भगिनि, अत्र पश्यतु, यद् भवती उक्तवती, अहं विलम्बेन आगतवती. अहं शृणोतु, अहं विलम्बेन आगतवती, तत्तु समीचीनं वाक्यम्. अथवा अथवा मया विलम्बः जातः. सम्पर्कः भग्नः जातः. एतानि सम्पर्कः भग्नः जातः, नो चेत् मया विलम्बः जातः, एतानि वाक्यानि अत्र क्ता प्रत्ययं योजयित्वा वदामः. मया विलम्बः जातः इति वाक्यमपि कर्मणि प्रयोगे अस्ति तत्र. उत्तमं. भवत्याः पार्श्वे वाक्यानि सन्ति चेत् श्रावयतु.
आं भगिनि, किञ्चित् पञ्चवाक्यानि अहं लिखितवती. मम पुत्रिका बालिकाभ्याः पुस्तकानि ददाति.
पुनः एकवारं.
मम पुत्रिका बालिकाभ्यः पुस्तकानि ददाति.
ददाति
सम्यक् भगिनि.
बालिका ददाति. बालिका ददाति किं ददाति? अत्र चिन्तयामः.
बालिकाभ्यः
परन्तु वयं चिन्तयामः अत्र अन्येषां कृते. अत्र लघुवाक्यं किं? बालिका मम पुत्री मम पुत्रिका ददाति, तत्तु लघुवाक्यम्. अनन्तरं भवत्याः पुत्रिका पुत्री किं ददाति? पुस्तकानि ददाति. कानि ददाति इत्युक्ते पुस्तकानि ददाति. परन्तु केभ्यः अथवा अत्र काभ्यः ददाति? बालिकाभ्यः ददाति. तदेव वाक्यं प्रथमाविभक्तौ अत्र प्रथमाविभक्तिना तत्र पुंलिङ्गे वदामश्चेत् किं वदामः?
मम यदि पुत्रिका बालिकेभ्यः पुस्तकानि ददाति.
बालकेभ्यः
क्षम्यतां बालकेभ्यः पुस्तकानि ददाति.
उत्तमं.
द्वितीयवाक्यः अस्ति, अहं प्रातःकाले.
भगिनि अत्र पश्यतु, द्वितीयवाक्यम् अस्ति. किमर्थं चेत् वाक्यं वाक्यानि.
आम् भगिनि,
वदतु.
द्वितीयवाक्यम्, अहं प्रातःकाले भक्तिगीतानि शृणोमि. गीतानि, गीतं नपुंसकलिङ्गमेव न भवति भगिनि?
गीतं गीतानि.
गीतानि शृणोमि. तृतीयवाक्यम् अस्ति, मन्दिरे भक्तजनाः मधुरगीतं शृण्वन्ति.
मन्दिरे
भक्तजनाः मधुरगीतं शृण्वन्ति.
जनाः शृण्वन्ति किम् इत्युक्ते मधुरगीतम्. उत्तमं.
मधुरगीतं शृण्वन्ति.
कुत्र शृण्वन्ति? मन्दिरे शृण्वन्ति.
तत्र सर्वे मम प्रतीक्षां कुर्वन्ति.
तत्र उत्तमं. तत्र सर्वे मम प्रतीक्षां
कुर्वन्ति. तदेव अहं किञ्चित् लिखितवती भगिनि.
उत्तमं. अत्र अहं कानिचन पदानि ददामि, भवती वाक्यरचनां करोतु. अत्र अहं ध्यानम् इति पदं ददामि. वाक्यं रचयतु.
ध्यानम्, अहं प्रातःकाले पूजाम् अनन्तरं ध्यानं करोमि.
पूजानन्तरम्. अत्र पश्यतु भगिनि, पूजानन्तरम् इति वदामश्चेत् तत्र समासः अस्ति, पूजायाः अनन्तरम् इति अर्थः तत्र. परन्तु तत्र समासं कृत्वा, यदि समासं कुर्मः चेत् तत्र विभक्तेः आवश्यकता नास्ति. इत्युक्ते पूजानन्तरं ध्यानं करोमि, तत्तु समीचीनम्. अथवा पूजायाः अनन्तरं ध्यानं करोमि.
पूजायाः अनन्तरं तथैव सम्यक् न भगिनि?
पूजायाः अनन्तरं न वाक्यद्वयमपि समीचीनमेव. परन्तु अहं किं वदामि, पूजानन्तरम् इति वदामश्चेत् तत्र समासः अस्ति. यदि समासं त्यक्त्वा पृथक् पृथक् वदामश्चेत् पूजायाः अनन्तरं ध्यानं करोमि. उत्तमम्. अनन्तरम् अध्यापनं.
महिला गृहकार्यम् अनन्तरम् अध्यापनं कृतवती.
अध्यापनं कृतवती. शिशुः शयनं.
शिशुः शयनेन निद्रां करोति.
तत्र शयनेन निद्रां किमर्थं? तत्र शयनमित्युक्ते निद्रा एव.
शयनम् इत्युक्ते निद्रा. आमां. शिशुः क्रीडानन्तरं शयनं करोति.
अनन्तरं भक्तः मननं.
भक्तः भक्तः सर्वदा भगवतः मननं कुर्वन्ति. भक्तजनाः भक्तजनाः किं वदामि,
अहं पाठं पाठस्य मननं करोमि, अथवा भक्तजनाः
भक्तजनाः प्रतिदिनं भगवत् आराधनं कुर्वन्ति.
भगवतः आराधनं कुर्वन्ति अत्र. उत्तमं.
मननमेव पदं भवती ददति.
अहं कृतवती मननमेव कृतवती. नो चेत् भवती चिन्तयन्तु, अनन्तरं कुर्मः. माता पाकं करोतु.
मम माता पाकं बहु सम्यक् करोति.
उत्तमम्. अत्र ध्वनिः अस्ति भगिनि. अनन्तरं शिशुः रोदनं.
शिशुः रोदनं करोति. शिशुः शिशुः रोदनं करोति.
किमर्थं रोदनं? शिशुः किमर्थं रोदति?
पाञ्चालिका आवश्यकम् एव रोदनं करोति.
पाञ्चालिका
कथं वदामि भगिनि? अहं पाञ्चालिका
अत्र पश्यतु भगिनि. अत्र शिशुः पाञ्चालिकाय अत्र चतुर्थी विभक्तेः आवश्यकता अस्ति. पाञ्चालिकाय रोदिति.
शिशुः पाञ्चालिकया रोदति.
अत्र यदि पाञ्चालिकया रोदिति इत्युक्ते किं भवति? भूमा भगिनी वदतु. न न भगिनी वंशी सुधा भगिनी शृणोतु. भूमा भगिनी वदतु.
पाञ्चालिकया
तत्र पाञ्चालिकया रोदिति इत्युक्ते तत्र तृतीयाविभक्तेः उपयोगं कुर्मः. तत्र पाञ्चालिकया रोदिति इत्युक्ते तत्तु समीचीनं वाक्यं न. पाञ्चालिकाय
तत्र
लताशब्दस्य चतुर्थीरूपं किं? लतायै. क्षम्यताम् अत्र पाञ्चालिकायै पाञ्चालिकायै करोति उत्तमम् अनन्तरं इदानीं पर्यन्तं वयं करोति अथवा कुर्वन्ति इति पदानां विषये किञ्चित् ज्ञातवन्तः अनन्तरं शृणोति इत्यस्मिन् विषये कानिचन वाक्यानि श्रावयन्तु
अहं वदामि भगिनि
वदतु
अहं लिखितवती परन्तु तदेव वाक्यम् अहं वदामि भगिनि
वदतु
अहं प्रातःकाले भक्तिगीतानि शृणोमि मन्दिरे भक्तजनाः मधुरगीतं शृण्वन्ति
भक्तजनाः मधुरगीतं शृण्वन्ति
द्वे वाक्ये एव लिखितवती
अनन्तरम् अत्र शृणोति इति पदस्य नवरूपाणि जानन्ति वा भवन्तः
शृणोति श्रुणुतः शृण्वन्ति शृणोषि श्रुणुथ शृणु किञ्चित् भ्रमः जातः भगिनि
अत्र मध्यमपुरुषे शृणोषि शृणुथः शृणुथ उत्तमपुरुषे
शृणोमि शृणुमः शृणोमि शृण्वः शृण्मः
उत्तमम् अत्र किं कुर्मः इत्युक्ते अत्र वयं किञ्चित् प्रयत्नं कृत्वा नववाक्यानि शृणोति इति पदं स्वीकृत्य नववाक्यानि रचयामः भवती प्रथमपुरुषे त्रीणि वाक्यानि रचयतु भगिनि शृणोति क्रियापदं स्वीकृत्य
अहं संस्कृतकक्षां प्रथमपुरुषेण सर्वे छात्राः संस्कृतकक्षां
न भगिनि अत्र पश्यतु अत्र प्रथमपुरुषे एकवचनमस्ति द्विवचनमस्ति बहुवचनमस्ति अत्र अहं केवलं बालिका इति पदं ददामि बालिका शृणोति बालिका पदं योजयित्वा त्रीणि वाक्यानि प्रथमपुरुषे रचयतु
बालिका गीतं शृणोति
अनन्तरं
बालिके गीतं द्वितीयपदं शृणोति शृण्वन्ति
अत्र बालिके किं भवति द्विवचने गीतं शृणुतः
शृणुतः बालिके गीतं शृणुतः बालिकाः गीतं शृण्वन्ति
उत्तमं तावदेव शोभा भगिनी अधुना
भगिनी एकः प्रश्नः अस्ति कुत्रचित् शकारः ऋकारः अस्ति कुत्रचित् संयुक्ताक्षर श्रु अस्ति श्रू एव ऋकारः अपि अस्ति किं सम्यक् भगिनि
अहं चिन्तयामि शकारः अनन्तरं कृष्णऋकारः एव सम्यक्
कानिचन पुस्तकानि श्रू इति पदं लिखितवती कानिचन पुस्तकानि श्रू तदेव अस्ति कानिचन पुस्तकानि श्रू इदानीमेव पुस्तके अभ्यासपुस्तके एव अस्ति तद् तत् लिखित
अत्र भगिनी अत्र पश्यतु अत्र किं वदामः इत्युक्ते कानिचन पुस्तकेषु अथवा शृणोतु कानिचन पुस्तकेषु अथवा कानिचित् पुस्तकेषु तथा लिखितमस्ति उत्तमं धन्यवादः अनन्तरं शोभा भगिनी भवती मध्यमपुरुषे वदतु मध्यमपुरुषे शृणोति बालिका
हा भगिनि, बालिका गीतं
न तत्र बालिका बालिका न मध्यमपुरुषकर्तृपदानि त्वं त्वं
ओ सारि भगिनि त्वं गीतं शृणोषि
शृणोषि
शृणोषि शृणोषि हा त्वं गीतं शृणोषि त्वं
अनन्तरं
भवति हा
भवती जानाति चेत् वदतु जानाति चेत् वदतु नो चेत् अहं वदामि
युवां गीतं शृणुवः शृण्वः
तत्र भगिनी अत्र शृणोषि शृणुथः शृणुथ मध्यमपुरुष क्रियापदानि
शृणुथः शृणुथ हा युवां गीतं शृणुथः यूयं गीतं शृणुथ
उत्तमम् उत्तमपुरुषे वदतु
उत्तमपुरुषे अहं गीतं शृणोमि अहं देन् आवां गीतं शृण्वः वयं गीतं शृण्मः
उत्तमम् अहं पदद्वयं ददामि वाक्यरचनां करोतु बालिका वार्ता
बालिका वार्तां शृणोति
उत्तमम् अहं विषयाः
अहं विषयाः अहं विषयान् शृणोमि
उत्तमं भक्तः श्लोकाः
भक्तः श्लोकान् शृण्वन्ति भक्तः सारि भगिनि भक्तः श्लोकान् शृणोति
उत्तमम् अहं भगवद्गीता
अहं भगवद्गीतां शृणोमि
उत्तमम् एषः प्रवचनम्
एषः प्रवचनं शृणोति
उत्तमं सर्वे भाषणं
सर्वे भाषणं बहुजन सर्वे भाषणं शृण्वन्ति
उत्तमं सर्वाः निन्दनं
सर्वाः निन्दनं शृण्वः सारि न शृण्वः सर्वः शृणुतः शृणुतः
अत्र पश्यतु भगिनि अत्र
बहुवचनं सर्वे सर्वाः द्वितीया भवति न भगिनि बहुवचनं सारि
अत्र सर्वाः इति पदं पदस्य रूपं किं वदतु
सर्वाः बहुवचनम् अस्ति सर्वनामपदानि
सर्व इति पदं त्रिषु लिङ्गेषु भवति पुंलिङ्गे किं भवति वदतु पुंलिङ्गरूपाणि कानि
पुंलिङ्गरूपाणि सर्वः
सर्वः अनन्तरं द्विवचने बहुवचने अपि वदतु
सर्वः सर्वा सर्वन् सर्वं
तथा न भवति भगिनि भूमा भगिनी भवती जानाति वा अत्र सर्वशब्दस्य रूपाणि कानि तत्र सर्वः सर्वौ
सर्वाः
पुंलिङ्गे सर्वे सर्वे भवति
ओ सर्वे सर्वे
पुनः तदेव वदतु सर्वः
सर्वः सर्वौ सर्वे
स्त्रीलिङ्गे
सर्वा सर्वे सर्वाः
उत्तमं नपुंसकलिङ्गे
सर्वं सर्वे सर्वाणि
उत्तमं तावदेव उत्तमं भगिनि अनन्तरं शोभा भगिनि महिला आकाशवाणी
महिला आकाशवाणी आकाशवाणीं शृणोति
उत्तमम् अहं सदा सङ्गीतम्
अहं सदा सङ्गीतं शृणोमि
भक्तः रामायणं
शृणोति.
जनाः कोलाहलः
जनाः शृण्वन्ति. ऐ थिङ्क् ऐ हेव् द सर्वः पदं स्ट्रेट् नौ भगिनि.
उत्तमम् सर्वनामपदं सर्वशब्दः त्रिषु लिङ्गेषु भवति, पुंलिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे. तथा एव कानिचन पदानि त्रिषु लिङ्गेषु भवन्ति, यथा अन्यशब्दः अपि सर्वशब्दः तथा. अनन्तरम् अत्र शृणोति इत्यस्मिन् विषये किञ्चित् अभ्यासं कृतवन्तः वयम्. अनन्तरं ददाति इति क्रियापदमस्ति. ददाति इति पदस्य रूपाणि कानि, प्रयत्नं कुर्वन्तु. ददाति इति क्रियापदस्य नवरूपाणि कानि?
ददाति, ददतः, ददन्ति.
भगिनी न तथा न. भूमा भगिनी करोति वा, एकवारं वदति वा?
ददाति,
द्विवचने वदतु भगिनी, द्विवचने सम्यक् वदतु.
ददाति,
दत्तः.
सम्यक् भगिनि, शोभा भगिनी सम्यक् उक्तवती. ददाति,
दत्तः,
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 ददति,
ददति,
ददति.
प्रथमपुरुषे तथा भवति. मध्यमपुरुषं त्यजामः, परन्तु अत्र अभ्यासपुस्तके मध्यमपुरुषः नास्ति, तदर्थं केवलम् उत्तमपुरुषे कुर्मः. उत्तमपुरुषे किं भवति?
ददामि, दद्वः, दद्मः.
उत्तमम्. अत्र शोभा भगिनी ददाति इति पदं योजयित्वा वाक्यानि रचयतु. भोजनं
दद्वः, ओके, युवां भोजनं दद्वः.
तत्र भगिनी युवाम् इति पदं तस्य कस्मिन् पुरुषे अस्ति?
ओ, उत्तमपुरुषे अस्ति. ओके, अहं भोजनं ददामि, त्वं भोजनं दत्, ओके,
किं भवति भगिनी, वंशी भगिनी?
अहं भोजनं ददामि, आवां भोजनं दद्वः, वयं भोजनं दद्मः.
मध्यमपुरुषे वदतु.
अहं न, त्वं भोजनं ददसि.
न, अत्र 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 किञ्चित् समीकरोतु.
त्वं भोजनं ददसि भगिनि,
ददासि,
क्षम्यतां, ददासि. त्वं यूयं भोजनं ददतः.
द्विवचने किं, द्विवचनरूपं किं मध्यमपुरुषे?
त्वं युवा, यूयं, युवां त्वं भोजनं ददासि, युवां भोजनं ददतः,
दत्तः.
क्षम्यतां, दत्तः.
तत्र भगिनी अत्र शृणोतु, प्रथमपुरुषे द्विवचने दत्तः, मध्यमपुरुषे द्विवचने दत्तः. तकारस्य अनन्तरं तत्र थकारः अपि अस्ति. वदतु.
युवां भोजनं दत्तः, यूयं भोजनं दत्त.
उत्तमं, तावदेव. अनन्तरम् वृद्धः, अहं पदद्वयं ददामि, वृद्धः नाणकं,
वृद्धः नाणकं. किं पुरुषः, प्रथमपुरुषः वदामि, मध्यमपुरुषः, अहम् उत्तमपुरुषः.
अत्र पश्यतु भवती यत् पृष्टवती तस्य आवश्यकता एव नास्ति, तस्य आवश्यकता एव नास्ति, तथा चिन्तनस्य
वृद्धः नाणकं ददाति.
उत्तमम्. इत्युक्ते अत्र अत्र पश्यतु वृद्धः इति वदामि चेत् वृद्धः इति पदं सर्वदा प्रथमपुरुषे एव तथा अनन्तरम् एषा रोटिका वदतु.
एषा रोटिका एषा रोटिका ददाति.
समीकरोतु.
त्वं रोटिका ददसि.
न न न न न एषा एषा कर्तृपदम्. एषा कर्तृपदम् अहं पदद्वयं दत्तवती. एकं कर्तृपदम् अन्यम् अन्यं पदं कर्मपदम्.
एषा रोटिकां ददाति.
उत्तमम्. एषा रोटिकां ददाति. कस्मै ददाति?
कस्मै ददाति इत्युक्ते षष्ठी उक्तवती. मम कृते ददाति.
अत्र पश्यतु कस्मै ददाति. कस्मै ददाति इत्युक्ते पुंलिङ्गे. शृणोतु पुंलिङ्गे चतुर्थी विभक्तेः उपयोगः अभवत् तत्र. कस्मै ददाति इत्युक्ते यदि भवती मह्यं ददाति. एषा मह्यं रोटिकां ददाति. मह्यं पदं रूपं किं? मह्यम् इत्युक्ते किं?
चतुर्थी विभक्ति अहमेव
इत्युक्ते अहं शब्दस्य चतुर्थी रूपं मह्यं. मह्यम् उत्तमं. अनन्तरं गृहिणी भिक्षा.
गृहिणी भिक्षां ददाति.
देवः वरम्.
देवः वरं ददाति. यानि वराणि ददाति.
देवः वरं ददाति अथवा यदि भवती वराणि तत्तु अहं
नपुंसकलिङ्गं
दृष्ट्वा वदामि. अत्र अहं चिन्तयामि नपुंसकलिङ्गमेव. धनिकः वस्त्राणि.
धनिकः वस्त्राणि ददाति.
वस्त्राणि ददाति. कस्मै ददाति अथवा केभ्यः ददाति?
जनेभ्यः ददाति.
उत्तमं. जनेभ्यः ददाति. धनिकः वस्त्राणि जनेभ्यः ददाति. उत्तमम्. अनन्तरम् अहं संस्कृतपुस्तकं. वदतु. अहं
संस्कृतपुस्तकं ददामि.
कस्मै ददाति भवती?
कस्मै ददाति? किं
वदामि? मम पुत्र्यै ददामि. उत्तमम्. अनन्तरम् अत्र एकं वाक्यं वक्तुं शक्नुमः. वयं सर्वे अपि पठनसमये अवधानं दत्त्वा पठामः. वयं सर्वे अपि संस्कृतपठनसमये अथवा संस्कृताध्ययनसमये अवधानं दत्त्वा पठामः. इत्युक्ते तत्र ददाति इति पदस्य क्त्वान्तरूपं दत्त्वा. अवधानं ददातु इत्युक्ते पे अटेन्शन्.
दत्त्वा अर्थं किं महोदय?
अवधानं दत्वा इत्युक्ते तत्र त्वान्तप्रयोगम् अवधानं दत्वा पठतु
त्वान्तप्रयोगम् अर्थम् अर्थं किं महोदय
अत्र प्रथमतया अवधानं ददातु अनन्तरं पठतु इत्युक्ते तत्र एकं वाक्यद्वयं योजयामश्चेत् तत्र वाक्यद्वयमस्ति वाक्यद्वयं योजयितुम् इच्छामश्चेत् तत्र प्रथमतया अहम् अवधानं दत्वा अनन्तरं पठामि तत्र त्वान्तप्रयोगं कुत्र कुर्मः इत्युक्ते अत्र अहं भोजनं करोमि अनन्तरम् अहं पठामि इति वाक्यद्वयमस्ति अनन्तरं वयं वाक्यद्वयं योजयामश्चेत् कथम् एकमेव वाक्यं कर्तुम् इच्छामश्चेत् तत्र कथं करणीयम् इत्युक्ते अहं भोजनं कृत्वा अनन्तरं अनन्तरं पठामि इत्युक्ते क्रियाद्वयं तत्र तत्र अवधानं दत्वा पठामि उत्तमम् अनन्तरम् अत्र अनन्तरं शक्नोति इति पदमस्ति शक्नोति शक्नोति इति योजयित्वा वदतु अहं संस्कृतम्
अहं संस्कृतं पठनं शक्नोमि
अत्र अहं संस्कृतं वदतु भगिनि पूमा भगिनि
शक्नोमि
पुनः वदतु
अहं संस्कृतपठनं कर्तुं शक्नोमि
संस्कृतपठनं कर्तुं शक्नोमि उत्तमं नो चेत् अहं संस्कृतं पठितुं शक्नोमि तथा एव अहं संस्कृतं किञ्चित् अवगन्तुं शक्नोमि अथवा अहं संस्कृतं शनैः संस्कृतभाषया वक्तुं शक्नोमि नो चेत् अहं संस्कृतेन सम्भाषणं सम्यक् कर्तुं शक्नोमि अधुना अद्य सुचित्रा भगिनी लिखितवती किं लिखितवती सा उक्तवती अहम् अधुना अद्य संस्कृतकक्ष्याम् आगन्तुं न शक्नोमि इत्युक्ते अहं संस्कृतकक्षायाम् अद्य मम अन्यं कार्यमस्ति अतः संस्कृतकक्ष्याम् आगन्तुं न शक्नोमि इति सा उक्तवती तथा एव शक्नोमि अनन्तरम् अहं कार्यं वदतु
अहं कार्यं कर्तुं शक्नोमि
अनन्तरं भवती किं कर्तुं शक्नोति वदन्तु
अहं संस्कृतं किञ्चित् पठनं शक्नोमि
पठितुम् अत्र पठितुं
शक्नोमि अहं होमियोपति
अत्र अहं चिकित्सां कर्तुं शक्नोमि इत्युक्ते अत्र वैद्यः किं कर्तुं शक्नोति
वैद्यः रोगनिवारणं कर्तुं शक्नोति
उत्तमम् इत्युक्ते वैद्यः चिकित्सां कर्तुं शक्नोति भवती अपि चिकित्सां कर्तुं शक्नोति उत्तमम् अनन्तरं ग्रामीणजनाः कृषिकार्यं वदतु
ग्रामीणजनाः कृषिकार्यं कर्तुं शक्नुवन्ति
उत्तमम् आरक्षकः किं कर्तुं शक्नोति
रक्षणं करोति
केषां रक्षणं करोति
आरक्षकः गृहं भारतदेशे रक्षणं करोति
अत्र पदमस्ति आरक्षकः आरक्षकः इत्युक्ते कः?
सैनिकः,
पोलिस्.
आरक्षकः इत्युक्ते
पोलिस्.
वदतु, आरक्षकः.
आरक्षकः जनाः रक्षणं कुर्वन्ति.
अत्र पश्यतु, आरक्षकः किं कर्तुं शक्नोति? आरक्षकः जनानां रक्षणं. अत्र किमर्थम्? अत्र पश्यतु, रक्षणं, रक्षणमिति पदं ल्युडन्तं पदं, ल्युट्, ल्युट् प्रत्ययम् इति वदामः. रक्षणं, पठनं, मननं, गमनं, लेखनम् एतानि पदानि ल्युडन्तप्रयोगः. अत्र तस्मात् पूर्वं सर्वदा षष्टिविभक्तेः उपयोगमेव कुर्मः. अत्र जनः, जनः इति पदस्य षष्टिरूपं किं वदतु?
जनः, जनः भगिनि, जनाः भगिनि.
जनाः इति पदस्य षष्टिरूपं किं?
जनस्य, जनस्य प्रथमा विभक्ति.
अत्र शृणोतु, अत्र जनः, जनः इति पदस्य प्रथमाविभक्तिरूपाणि वदतु.
जनः, जनौ, जनाः.
उत्तमम्. अनन्तरं षष्टिविभक्तिरूपाणि?
जनस्य, जनाभ्यां, जनानां.
द्विवचनं सम्यक् नास्ति.
जनस्य, जनयोः, जनानाम्.
अधुना करोतु, अधुना आरक्षकः,
आरक्षकः जनानां रक्षणं कुर्वन्ति.
जनानां रक्षणं अत्र पश्यतु, पश्यतु, अत्र वाक्यस्य कर्तृपदं किं वदतु?
आरक्षकः. क्षम्यतां, एकवचनमस्ति, आरक्षकः जनानां रक्षणं करोति.
अधुना सम्यक् रीत्या पुनः एकवारं तदेव.
आरक्षकः जनानां रक्षणं करोति.
उत्तमं वाक्यं, समीचीनं वाक्यं. अनन्तरम् अहम् एकं वाक्यं वदामि. अहं संस्कृतश्रवणं विना, ध्वनिः अस्ति, अहं संस्कृतश्रवणं विना स्थातुं न शक्नोमि इत्यपि एकं वाक्यं वक्तुं
शक्नुमः.
अत्र तिष्ठति इति पदं जानाति वा?
न जानामि.
अत्र तिष्ठति एकं क्रियापदं,
तिष्ठति, तिष्ठति. अहं किञ्च तिष्ठति. अत्र
शोभा भगिनी वदति वा, तिष्ठति इत्युक्ते किम्? एकं वाक्यं रचयतु, तिष्ठति.
अध्यापिकः शाले तिष्ठति.
अत्र
ओके, सोरि,
सम्यक्
एव.
अत्र अत्र भवती यद् उक्तवती, किम् उक्तवती? अध्यापकः
शालां, शालायां
वदतु.
अध्यापकः छात्राः अध्ययनं पठितुं.
न भगिनि, तत्र क्लिष्टकरं वाक्यं मास्तु. केवलं लघुवाक्यं वदतु. अत्र पुंलिङ्गे वक्तुमिच्छति चेत् पुंलिङ्गे वदतु. कर्तृपदं पुंलिङ्गे स्वीकरोति चेत् पुंलिङ्गे एव वाक्यं रचयतु. इत्युक्ते अध्यापकः वा, अध्यापकः इति पदं स्वीकृत्य वदति चेत् वदतु. नो चेत् अध्यापिका इति वक्तुमिच्छति चेत् तथा वदतु.
अधुना अध्यापकः कक्ष्यां कक्ष्यां शालायां शाले
किमपि तिष्ठति किमपि अत्र शाला वा नो चेत् कक्ष्या वा किमपि तत्र शाला स्वीकरोतु, शाला इति पदं स्वीकरोतु. अत्र अध्यापकः शालायां
तिष्ठति
तिष्ठति. किमर्थं तथा इत्युक्ते अत्र तिष्ठति इति क्रियापदं स्था इति धातुतः आगच्छति. स्था धातुतः आगच्छति. स्था धातोः क्रियापदं लट्लकाररूपं तिष्ठति. स्था धातुः अकर्मकधातुः इत्युक्ते न कदापि कर्मपदं स्वीकरोति. अतः तत्र कर्मपदं नास्ति, परन्तु केवलं सप्तमीविभक्तेः रूपमेव योजयितुं शक्नुमः वयं. तथा एव अतः एव शाला इति पदस्य सप्तमीरूपं शालायाम् इति भवति. अतः एव अध्यापकः शालायां तिष्ठति. अत्र यदि वंशीसुधा भगिनी पृष्टवती स्थित्वा इत्युक्ते किं, स्थित्वा इत्युक्ते स्था धातोः त्वान्तरूपं स्थित्वा. यथा गच्छति इति पदस्य त्वान्तरूपं गत्वा, पठति पठित्वा, तथा एव तिष्ठति पदस्य त्वान्तरूपं स्थित्वा इति भवति. परन्तु अभ्यासपुस्तके एव अग्रे गत्वा त्वान्त प्रत्ययं तस्य विषये अग्रे गत्वा वयं पठामः. परन्तु अत्र केवलं स्थित्वा इत्युक्ते स्त्वान्तरूपम्, अत्र स्था धातुः कर्मपदं न स्वीकरोति. उत्तमम्. अनन्तरम् अत्र वंशीसुधा भगिनी भवती करोति वा अन्यानि वाक्यानि? अत्र अन्यं क्रियापदं किमस्ति अत्र? शक्नोति एव, शक्नोति. भवती वेदम् उच्चारयितुं शक्नोति वा?
भगिनी एकः प्रश्नः अस्ति, अकर्मकधातु एव पूर्वमेव सप्तविभक्ते एव अस्ति भगिनि, सर्वदा सप्तविभक्ते एव अस्ति अकर्मकधातु पूर्वः?
इत्युक्ते साधारणतया प्रथमाविभक्ति वा अथवा सप्तमी विभक्तेः उपयोगम् एव कुर्मः तदा अकर्मकधातुः अस्ति चेत्. साधारणतया द्वितीया विभक्तिः इत्युक्ते कर्मपदम्. अनन्तरं शक्नोति इति योजयित्वा अन्यानि वाक्यानि रचयतु.
शक्नोति, अहं संस्कृतवाक्यं योजनं कर्तुं शक्नोमि.
पुनः वदतु तदेव.
अहं वदामि, अहं संस्कृतवाक्यं वदितुं शक्नोमि.
वक्तुं शक्नोमि. उत्तमम्. संस्कृतवाक्यं वक्तुं शक्नोमि. उत्तमम्. अत्र तत्र किमस्ति चेत् तत्र वच् धातुः अस्ति, अपि च वद् धातुः अपि अस्ति. तत्र धातुद्वयमस्ति, वच् धातुतः वक्तुम् इति रूपम् आगच्छति, वद् धातुतः वदितुम् अपि अस्ति. अनन्तरम् अत्र केचन नियमाः सन्ति. अत्र साधारणतया पठ् धातुतः पठति इति क्रियापदम् आगच्छति, खाद् धातुतः खादति, खादति पदस्य बहुवचनरूपं खादन्ति, पठति पदस्य बहुवचनरूपं पठन्ति, गच्छति गच्छन्ति, तथा भवति. परन्तु अत्र विशेषाभ्यासरूपेण नूतनानि पदानि दत्तानि. अत्र किमर्थं तथा करोति पदस्य रूपं कुर्वन्ति इति किमर्थं तथा भवति इति चिन्तयामश्चेत् तत्र केचन नियमाः सन्ति. नियमाः के इत्युक्ते, प्रथमतया क्रियापदस्य अन्तिमवर्णः कः इति द्रष्टव्यं. फस्ट् वी नीड् टु लुक् एट् द क्रियापदस्य अन्तिमवर्णः किं कः इत्युक्ते अत्र ति अस्ति इति भागस्य पूर्वम् अकारः अस्ति चेत् सामान्यक्रियापदानि सिद्ध्यन्ति. इत्युक्ते पठति इति पदे ति इत्यस्मात् पूर्वम् अकारः अस्ति, अतः तस्य बहुवचनरूपं पठन्ति भवति. तथा एव खादति इत्यस्मिन् पदे ति इत्यस्मात् पूर्वम् अकारः अस्ति, अतः तस्य बहुवचनरूपं खादन्ती भवति. परन्तु करोति इति पदस्य पदे सि इत्यस्मात् पूर्वम् ओकारः अस्ति. यदि ओकारः अस्ति चेत् तदा बहुवचनरूपं कुर्वन्ति इति भवति. तत्र केचन नियमाः सन्ति, सूत्राणि सन्ति तेषां कृते. करोति कुर्वन्ति, शक्नोति शक्नुवन्ति, अनन्तरं शृणोति शृण्वन्ति भवति. इत्युक्ते अत्र अहं पूर्वमेव उक्तवती संस्कृतभाषायाम् उपद्विसहस्रं धातवः सन्ति. इत्युक्ते मोर् देन् 2200 धातुस् आर् देर् इन् सान्स्क्रिट् लेङ्ग्वेज्. प्रत्येकस्य धातोः लक्षणमस्ति. इत्युक्ते अत्र करोति इति क्रियापदं क्रू धातुतः आगच्छति. करोति शृणोति शक्नोति एतानि त्रीणि पदानि तनादिगणे, तत्र दशगणाः सन्ति, तनादिगणे सन्ति. अपि च ददाति इति क्रियापदं स्वीकुर्मः चेत् तत्र ति इत्यस्मात् पूर्वं तत्र अकारः एव अस्ति, परन्तु भिन्नगणे स्थापयामः ददाति इति क्रियापदं. ददाति इति क्रियापदं जुहोत्यादिगणः नाम्ना अन्यस्मिन् गणे स्थापयामः. अनन्तरं जानाति इति पदं स्वीकुर्मः चेत् ति इत्यस्मात् पूर्वं दीर्घ आकारः अस्ति, अतः तस्य बहुवचनरूपं किं भवति? जानन्ति इति भवति. ददाति इति पदं ददाति तत्र जुहोत्यादिगणः विशिष्टगणः, अतः एव तस्य बहुवचनरूपं ददाति पदस्य बहुवचनरूपं ददति इति भवति. तत्र केचन नियमाः सन्ति, परन्तु अग्रे गत्वा वयं तेषां विषये ज्ञातुं शक्नुमः. अधुना पर्याप्तम्. अनन्तरम् अभ्यासपुस्तकं प्रति गच्छामः. अभ्यासपुस्तके अत्र चतुर्विंशतितमे पुटे अत्र किम् अस्ति इति पश्यामः. अत्र भूमा भगिनी भवती पठति वा 5.1 भागे?
अत्र प्रश्नस्य एकम् उत्तरं लिखितमस्ति. आवरणे विद्यमानस्य पदस्य साहाय्येन पुनः त्रीणि उत्तराणि लिखतु. कुत्र पुस्तकमस्ति? स्यूते पुस्तकमस्ति. ग्रन्थालयः, ग्रन्थालये पुस्तकम् अस्ति. आपणः, आपणे पुस्तकम् अस्ति. हस्तः, हस्ते पुस्तकमस्ति.
हस्ते पुस्तकमस्ति. भवती कथं ज्ञातवती अत्र स्यूतः इति?
आपणः पुल्लिङ्गः, अकारान्तपुल्लिङ्गः, सप्तमी विभक्ति आपणे भवति.
उत्तमम्. अत्र चत्वारि पदानि दत्तानि, विभक्तिः का तेषां?
चत्वारि स्यूतः,
चत्वारि
स्यूतः प्रथमा विभक्ति एकवचनं,
एकवचनं.
स्यूते सप्तमी विभक्ति
एकवचनम्. इत्युक्ते अत्र स्यूतः, ग्रन्थालयः, आपणः, हस्तः, चत्वारि पदानि पुंलिङ्गे एव सन्ति. अतः एव इत्युक्ते स्यूतः पदस्य सप्तमी रूपं किम्?
स्यूते.
ग्रन्थालयः,
ग्रन्थालये.
आपणः,
आपणे.
हस्तः,
हस्ते.
चषकः,
चषके.
दन्तकूर्चः,
दन्तकूर्चे.
कण्डोलः,
कण्डोले.
कण्डोलः इत्युक्ते किं जानाति वा?
न भगिनि.
कण्डोलः इत्युक्ते बास्केट्.
ओ
उत्तमं. घटः, घटः,
घटे.
अनन्तरम् अत्र आसन्दः
आसन्दे
उत्तमम् द्वितीयं करोतु कुत्र बालकः अस्ति तत् पठतु
कुत्र बालकः अस्ति गृहं गृहे बालकः अस्ति नगरं नगरे बालकः अस्ति चित्रमन्दिरं चित्रमन्दिरे बालकः अस्ति उपाहारगृहम् उपाहारगृहे बालकः अस्ति
उत्तमम् अत्र चत्वारि पदानि तेषां विभक्तिः का अपि च लिङ्गं किं वदतु
गृहं प्रथमाविभक्ति नपुंसकलिङ्गम् एकवचनं नगरं सेम् नगरं चित्रमन्दिरम् उपाहारगृहं सर्वे नपुंसकलिङ्गम् एकवचनम् एव
इत्युक्ते अत्र सर्वाणि पदानि नपुंसकलिङ्गे नपुंसकलिङ्गे एकवचने दत्तानि परन्तु भवती परिवर्तनं कृत्वा सप्तमी विभक्तौ एकवचने लिखितवती उत्तमम् अत्र इत्युक्ते गृहम् इति पदस्य सप्तमी रूपं गृहे बहुवचनं किं भवति
गृहेषु
न सप्तमी बहुवचनं गृहाणि अपि च नगरं
नगराणि
तत्र मूर्धन्यणकारः अस्ति चित्रमन्दिरं
चित्रमन्दिराणि
उपाहारगृहम्
उपाहारगृहाणि
उत्तमं अनन्तरम् अत्र अहं पदं ददामि भवती सप्तमी विभक्तेः रूपं वदतु पुस्तकं
पुस्तकं पुस्तके
वस्त्रं
वस्त्रे
विमानपत्तनं
विमानपत्तने
शयनमन्दिरं
शयनमन्दिरे
नगरं
नगरे
पाकगृहं
पाकगृहे
उत्तमम् अनन्तरम् अत्र कुत्र पाञ्चालिका अस्ति वदतु
उत्पीठिका
अत्र एकं वदामि अत्र प्रथमतया प्रथमचत्वारि वाक्यानि वाक्येषु तत्र पदानि पुंलिङ्गे सन्ति अपि च द्वितीयं द्वितीयं चित्रमस्ति तत्र चत्वारि पदानि नपुंसकलिङ्गे सन्ति परन्तु तत्र पुंलिङ्गे अपि च नपुंसकलिङ्गे सप्तमी विभक्तेः रूपं समानम् इति भवती अवगतवती वा तत्र तत्र रूपाणि समानानि
तृतीयविभक्तितः सप्तमीविभक्तिपर्यन्तं पुंलिङ्गशब्दमेव सन्ति
उत्तमम् उत्तमं तत्तु स्मर्तव्यः विषयः इत्युक्ते अत्र केवलं प्रथमाविभक्ति अपि च द्वितीयाविभक्तिरूपाणि एव भिन्नानि भवन्ति तृतीयाविभक्ति आरभ्य सप्तमीविभक्तिपर्यन्तं पुंलिङ्गे अपि च नपुंसकलिङ्गे रूपाणि समानानि अतः सुलभमेव उत्तमं सर्वे स्म अत्र शृण्वन्तु अत्र इट्स् द ईजियेस्ट् पार्ट् वि डोण्ट् नीड् टु बै हार्ट् टु मच् किमर्थं पुंलिङ्गे किं भवति रूपाणि आकारान्त पुंलिङ्गे प्रथमाविभक्ति द्वितीयविभक्तिरूपाणि वदतु
रामौ रामाः रामं रामौ रामैः
रामं रामं रामौ
रामैः
रामान्
रामान् रामान् ओ सारि
इत्युक्ते परन्तु अत्र नगरं स्वीकृत्य वदतु प्रथमाविभक्तिरूपं द्वितीयविभक्तिरूपं
नगरं नगरे नगराणि
तावदेव इत्युक्ते केवलं प्रथमाविभक्तिरूपाणि द्वितीयाविभक्तिरूपाणि एव भिन्नानि भवन्ति परन्तु तृतीया आरभ्य सप्तमीपर्यन्तं रूपाणि पुंलिङ्गे अपि च नपुंसकलिङ्गे समानानि इत्युक्ते अत्र अकारान्तपदेषु अकारान्तपदेषु समानानि भवन्ति उत्तमम् अनन्तरं कुत्र पाञ्चालिका अस्ति वदतु
कुत्र उत्पाटिकायां पाञ्चालिका अस्ति.
अत्र उत्पीठिकायां उत्पीठिका इत्युक्ते किम्?
टेबल.
अस्तु, वदतु.
कपाटिका. अत्र चत्वारि शब्दानि स्त्रीलिङ्गे सन्ति.
पदानि अथवा अथवा शब्दः
शब्दानि
इत्युक्ते चत्वारि पदानि अथवा चत्वारः शब्दाः चत्वारि पदानि चत्वारः शब्दाः. सम्यक् वा? वदतु.
कपाटिका. कपाटिकायां पाञ्चालिका अस्ति. पेटिका. पेटिकायां पाञ्चालिका अस्ति. निधानिका. निधानिकायां पाञ्चालिका अस्ति.
उत्तमम्. एतेषु पदेषु निधानि वदतु. निधानिका इत्युक्ते किम्?
अहं न जानामि.
कः वदति? शोभा भगिनी वदति वा?
शेल्फ् अस्ति भगिनि.
एकं वाक्यं रचयतु निधानिका योजयित्वा. कब्बोर्ड्.
कब्बोर्ड्. मम गृहे निधानिका अस्ति.
उत्तमं. मम गृहे निधानिकायां किं स्थापयति भवती?
निधानिकायां भावचित्राणि, कानिचन वस्तूनि स्थापयामि. पुस्तकानि स्थापयामि.
उत्तमम्. उत्तमं. तावदेव. अनन्तरं भूमा भगिनी भवती एव करोतु.
कुत्र मन्दिरम् अस्ति? काशी. काश्यां मन्दिरम् अस्ति. उज्जयिनी. उज्जयिनीम् उज्जयिन्यां मन्दिरम् अस्ति.
उत्तमम्.
पुरी. पुर्यां.
पूर्यां. अहं चिन्तयामि पूर्यां. वदतु.
जगन्नाथमन्दिरम् अस्ति. कन्याकुमारी. कन्याकुमार्यां मन्दिरमस्ति. कन्याकुमारीमन्दिरमस्ति.
मन्दिरमस्ति. अत्र कुत्र पाञ्चालिका अस्ति इत्यस्मिन् विषये तत्र चत्वारि पदानि दत्तानि. पदेषु साम्यमस्ति वा न वा? साम्यं. सिमिलारिटि. उत्पीठिका, कपाटिका, पेटिका, निधानिका, एतेषु पदेषु अस्ति वा साम्यं? किं
साम्यं? सर्वे पदानि दीर्घ आ इति अन्त्यं भवन्ति.
उत्तमं. सर्वाणि पदानि दीर्घ आकारान्तपदानि. दीर्घ आकारान्त स्त्रीलिङ्गपदानि.
सर्वे अपि गृहवस्तूनि.
सर्वे अपि अत्र भगिनि वस्तूनि. वस्तूनि इति पदं नपुंसकलिङ्गपदम्. अत्र किञ्चित् वदामि. किञ्चित् वस्तूनि उकारान्त नपुंसकलिङ्गपदं. रूपाणि कथं भवन्ति इत्युक्ते वस्तु वस्तूनि वस्तूनि तथा भवति. अत्र वंशीसुधा भगिनी वस्तु वस्तूनि वस्तूनि इति भवति. सर्वाणि अत्र वाक्यं वदतु. सर्वाणि वस्तूनि.
सर्वाणि वस्तूनि गृहे एव सन्ति.
एतानि सर्वाणि वस्तूनि. अनन्तरं किं वदामः? किं वक्तुमिच्छति भवती?
सर्वे पदानि भवती एव उक्तवती. अहं संस्कृते वक्तुं
वदतु. वदतु. एतानि सर्वाणि वस्तूनि
एतानि गृहवस्तूनि सन्ति
तावदेव तावदेव एतानि सर्वाणि वस्तूनि गृहवस्तूनि अथवा मम गृहे सन्ति एतानि सर्वाणि वस्तूनि मम गृहे सन्ति किञ्चित् ध्वनिः अस्ति अतः म्यूट् करोमि उत्तमम् अनन्तरम् अत्र भूमा भगिनी भवती वदतु अत्र कुत्र मन्दिरम् अस्ति इति अस्मिन् विषये अत्र चत्वारि पदानि सन्ति तेषु अपि साम्यमस्ति वा
साम्यम् ईकारान्त दीर्घ ईकारान्तः स्त्रीलिङ्गं
दीर्घ ईकारान्तपदानि यथा यथा नदी शब्दवत् अत्र दीर्घ ईकारान्तपदानां सप्तमी विभक्तेः रूपं किं भवति एकवचने कथं भवति
काश्यां काशी काश्यां नद्याम् उज्जयिनी उज्जयिन्याम्
उत्तमम् उत्तमम् इत्युक्ते अत्र अस्मिन् पुटे केवलं सप्तमी विभक्तेः अभ्यासः अस्ति इत्युक्ते पुस्तकं कुत्र अस्ति बालकः कुत्र अस्ति पाञ्चालिका कुत्र अस्ति मन्दिरं कुत्र अस्ति प्रथमचत्वारि वाक्यानि पुंलिङ्गे सन्ति वयं रचितवन्तः द्वितीयभागे अत्र चत्वारि पदानि नपुंसकलिङ्गे सन्ति अतः वाक्यानि तत्र नपुंसकलिङ्गपदस्य सप्तमी विभक्तिरूपाणि चित्वा वयं योजितवन्तः अनन्तरं पाञ्चालिका कुत्र अस्ति इत्यस्मिन् विषये उत्पीठिका कपाटिका एतानि पदानि आकारान्तपदानि अतः आकारान्तपदानां सप्तमी विभक्तिरूपं चित्वा वयं योजितवन्तः तत्र तावदेव अनन्तरं पञ्चविंशतितमे पुटे किम् अस्ति इति पश्यामः अत्र वंशीसुधा भगिनी भवती करोतु पञ्चविंशतितमे पुटे किम् अस्ति
आं भगिनि मम पिता कार्यालयं कार्यं ओके सम्यक् मम पिता कार्यालये कार्यं करोति मम भ्राता वित्तकोषे कार्यं करोति मम सहोदरः यन्त्रागारे कार्यं करोति मम भगिनी दूरवाणी
भगिनी भगिनी अत्र अत्र कोष्टके मम इति पदं दत्तमस्ति पिता अपि च सहोदरः इति पदं दत्तमस्ति तत्र दशवाक्य अत्र सूचनां पठतु एतस्य कोष्टकस्य आधारेण दशवाक्यानि लिखतु दशवाक्यानि तानि एव पदानि योजयित्वा वदतु
मम सहोदरः दूरवाणी विनिमयकेन्द्रे कार्यं करोति मम पिता स्वायत्तसंस्था कार्यं स्वायत्तसंस्था कार्यं करोति स्वायत्तसंस्थायां कार्यं करोति
अत्र पश्यतु स्वायत्तसंस्था इति आकारान्तपदं स्त्रीलिङ्गम् अतः किं भवति
स्वायत्तसंस्थायां कार्यं करोति
वित्तकोशः इत्युक्ते
वित्तकोश इत्युक्ते बेङ्क् भगिनि
यन्त्रागारम् इत्युक्ते
फ्याक्ट्रि
दूरवाणीविनिमयकेन्द्रम् इत्युक्ते
टेलिफोन् एक्स्चेञ्ज्
उत्तमं स्वायत्तसंस्था इत्युक्ते
इण्डिपेण्डेण्ट्
वालण्टरि आर्गनैजेशन् अत्र दशवाक्यानि लिखितवती वा भवती दशवाक्यानि कथं दशवाक्यानि कथं भवन्ति अत्र कार्यालयः वित्तकोशः यन्त्रागारं दूरवाणीविनिमयकेन्द्रं स्वायत्तसंस्था इत्युक्ते पञ्चपदानि दत्तानि अपि च कर्तृपदानि पिता सहोदरः आहत्य दशवाक्यानि आगतानि, दशवाक्यानि भवती रचितवती. उत्तमम्. अनन्तरम् अत्र शोभा भगिनी भवती करोतु, अत्र एकम् एतं पदबन्धम् उचितपदैः पूरयतु.
आं भगिनि, एतं पदबन्धम् उचितपदैः पूरयतु यथा.
भगिनि क्षम्यताम्, उचितपदैः इति पदं लिङ्गं किं भगिनि? उचितपदैः इति
चिन्तयतु, अत्र सर्वे चिन्तयन्तु, उचितपदैः रूपं किं?
तृतीयपुल्लिङ्गः,
तृतीयविभक्ति बहुवचनं,
रामैः.
अत्र पश्यतु, अत्र पश्यतु भगिनी, अत्र प्रथमाविभक्तिरूपम् अस्ति पदं पदे पदानि.
ओहो, नपुंसकलिङ्गम्.
तृतीयविभक्ति बहुवचनं यथा पुंलिङ्गवतेव, यथा रामशब्दः, यदि रामशब्दं स्वीकुर्मः चेत् तत्रापि तृतीय बहुवचनं फलैः. उत्तमम्, उत्तमम्, उत्तमम्. रामैः अथवा
रामाभ्यां पदाभ्यां पदैः,
रामैः फलैः. अतः एव अत्र उचितपदैः इति अस्ति. पदबन्धम् इत्युक्ते किम्?
पदबन्धम् इत्युक्ते
Is it quiz?
पदबन्धं भवन्तः जानन्ति एव. उत्तमं. शोभा भगिनी करोतु.
यथा चालकः अत्र अस्ति.
चालकः इत्युक्ते
चालकः ड्रैवर् अस्ति भगिनि.
चालकः साधारणतया अत्र अस्मिन् वाक्ये वदतु.
चालकः अत्र अस्ति, चालकः लोकयाने अस्ति. उदाहरणं, भवतः माता कुत्र अस्ति? भवतः माता गृहे अस्ति.
भवत्याः माता कुत्र अस्ति?
भवत्याः माता गृहे अस्ति. भवत्याः माता, मम माता नास्ति भगिनि.
अस्तु अस्तु, अनन्तरम् अनन्तरं केवलं पृच्छामि भगिनि.
नागरिकाः अत्र वसन्ति. नागरिकाः नगरे वसन्ति.
अत्र प्रश्नवाचकवाक्यं वदतु.
नागरिकाः कुत्र वसन्ति?
नागरिकाः इत्युक्ते के? के
नगरे, यः नगरे वसति सः नागरिकः.
उत्तमम्. तदेव वाक्यं बहुवचनं, तदेव वाक्यं बहुवचने वदतु.
यः बहुवचनं किम् अस्ति भगिनि? यः ये नगरे वसन्ति ते नागरिकाः सन्ति.
उत्तमम्. अनन्तरं करोतु.
ओके, अत्र कार्याणि कुर्वन्ति.
कुत्र?
कार्यालये कार्याणि कुर्वन्ति.
एकवचने वदतु वाक्यं.
कार्यालये कार्यं करोमि.
उत्तमम्. अनन्तरम्
अत्र भगिनी कार्याणि एव सम्यक् अस्ति वा? कार्याणि करोति.
अत्र अत्र कर्तृपदं किम्?
मम सन्देहः भगिनी, एक पुरुषः सेवरल् कार्याणि कर्तुं शक्नोति. तत् उदाहरणात्
अत्र अहम् अवगच्छामि, यद् भवती पृष्टवती अहम् अवगच्छामि. इत्युक्ते अत्र अहं बहूनि कार्याणि करोमि. इत्युक्ते अत्र वयं सर्वे अपि वाक्यानि अत्र कर्तरिप्रयोगे वाक्यरचनां कुर्मः. कर्तरिप्रयोगे वाक्यरचना भवति चेत् इत्युक्ते वि आर् आल् यूसिङ्ग् द आक्टिव् वाय्स् फस्ट् नो इन् संस्कृत लाङ्ग्वेज् वि आर् सपोस् टु लर्न् आक्टिव् वाय्स् पर्फेक्ट्लि देन् ओन्लि वि केन् लर्न् पेसिव् वाय्स्. पेसिव् वाय्स् इत्युक्ते कर्मणि प्रयोगः. अत्र कर्तरिप्रयोगे कर्मणि प्रथमतया वयं सर्वे अपि वाक्यरचनां कर्तरिप्रयोगे एव कुर्मः. कर्तरिप्रयोगः इत्युक्ते किम् इति वयं चिन्तयामश्चेत् तत्र क्रियापदं सर्वदा कर्तृपदम् अनुसृत्य भवति. इत्युक्ते अहं पठामि, सः पठति, अहं कार्याणि. तत्र कर्मपदं भवति, मध्ये कर्मपदं भवति, परन्तु क्रियापदं सर्वदा कर्तृपदम् अनुसृत्य एव वाक्यरचनां कुर्मः.
ओके भगिनि,
इदानीं वदतु, भवती यद् वक्तुमिच्छति तदेव वदतु. अत्र कार्याणि कुर्वन्ति, तस्मिन् विषये वदतु.
अत्र कार्याणि कुर्वन्ति, कार्यालये कार्याणि कुर्वन्ति. सारि, वाट् वुड् यु लैक् टु नो?
अत्र कुर्वन्ति इति योजितमस्ति, परन्तु के कुर्वन्ति, के जनाः कुर्वन्ति इति वयं न उक्तवन्तः. We did not use the kartrupadam there. We are just using karyani kurvanti.
Aha, bhagini.
Kutra kurvanti? Kutra kurvanti?
Karyalaya kurvanti.
K kurvanti?
K kurvanti, yeah. K.
K kurvanti? Janaha.
Janaha.
No, chetu purusha. Kimapi. Janaha.
Janaha.
Nagarikaha. Atra vakyam. नागरिकाः कार्यालये कार्याणि कुर्वन्ति. परन्तु कुर्वन्ति इति पदस्य अन्वयः कुत्र अस्ति? तत्र तस्य अन्वयः नागरिकाः वा अथवा जनाः?
बहुवचनं.
द लिङ्क् बिट्वीन् कुर्वन्ति अण्ड् जनाः, देर् इस् अ लिङ्क् बिट्वीन् जनाः अण्ड् कुर्वन्ति. तत्र कर्तरिप्रयोगे क्रियापदस्य सम्बन्धः कर्तृपदेन सह भवति, न तु कर्मपदेन सह.
अवगच्छामि भगिनि,
अनन्तरं करोतु.
भवान् कुत्र पठति? भवान् विद्यालये पठति.
अत्र बहुवचने वाक्यं रचयतु.
भवन्तः कुत्र पठति?
पठन्ति.
सारि, भवन्तः कुत्र पठन्ति? भवन्तः विद्यालये पठन्ति.
उत्तमम्. अनन्तरं
धनम् अत्र रक्षामः. धनं वित्तकोषे रक्षामः.
वित्तकोषे
रक्षामः. चलनचित्रम् अत्र पश्यतु. चलनचित्रं चित्रमन्दिरे पश्यतु.
गृहे अपि द्रष्टुं शक्नुमः. उत्तमम्, उत्तमम्. अनन्तरं
मशी कुत्र अस्ति? मशी लेखन्याम् अस्ति. मशी घट्याम् अपि अस्ति.
अत्र मशी इत्युक्ते किं भगिनि?
मशी इङ्क्.
मषि कुत्र अस्ति इत्युक्ते, मषि इत्युक्ते इङ्क्.
लेखन्याम्
अस्ति. अनन्तरम् अहं कानिचन पदानि ददामि, वाक्यं रचयतु. देवः देवालयः.
देवः देवालये अस्ति.
भक्तः देवालयः.
भक्तः देवालये आगच्छति.
भक्तः देवालये अस्ति.
अस्ति अस्ति, नाट् आगच्छति, देवालयम् आगच्छति. भक्तः देवालये अस्ति.
तत्र गन्तव्यस्थानं देवालयम् इति वदामश्चेत्, आगच्छति इति पदं तत्र आगच्छति इति क्रियापदं योजयित्वा वदामश्चेत् आगच्छति इति पदं गन्तव्यस्थानम् अस्ति. तत्र यदि गन्तव्यस्थानम् अस्ति चेत् तत्र सदा द्वितीयाविभक्तेः उपयोगमेव कुर्मः. इत्युक्ते यथा भक्तः देवालयं गच्छति, भक्तः देवालयम् आगच्छति, परन्तु अत्र भक्तः देवालये अस्ति. अनन्तरं चन्द्रः आकाशः,
चन्द्रः आकाशे अस्ति.
मेघाः आकाशः,
मेघाः आकाशे अस्ति, मेघाः आकाशे सन्ति.
उत्तमं. मूल्याङ्कः पत्रालयः,
मूल्याङ्कः पत्रालये. मूल्याङ्कः अर्थं भगिनि
कः वदति? मूल्याङ्कः इत्युक्ते उत्तमं वदतु. स्टाम्प् भगिनि,
स्टाम्प्. ओ, मूल्याङ्कः
पत्रालयः,
पत्रालयः पत्रालये अस्ति. मूल्याङ्कः अस्ति,
अस्ति. उत्तमम्
अस्ति.
नक्षत्राणि, नक्षत्राणि आकाशः,
नक्षत्राणि आकाशे सन्ति.
पात्रं पिष्टकं,
पात्रं पिष्टकं, तिष्ठकम्. ऐम् सारि भगिनि, ऐ डोण्ट् नो द मीनिङ्ग्.
तिष्ठकम् इत्युक्ते फ्लोर्, फ्लोर्,
फ्लोर्,
फ्लवर्, फ्लवर् दट् इत्युक्ते फ्लवर् इति वदामः,
फ्लवर्
इत्युक्ते
पात्रे तिष्ठकम् अस्ति.
पात्रे पिष्टकमस्ति, परन्तु अहं चिन्तितवती पिष्टके पात्रम् अस्ति इति भवति. उत्तमम्. अनन्तरं बालकः क्रीडाङ्गणं,
बालकः क्रीडाङ्गणे अस्ति.
उत्तमं. का नगरं कार्यालयः,
नगरे कार्यालयम् अस्ति.
नगरे कार्यालयः अस्ति. उत्तमं. पाचकः अस्ति. पाचकः पाकशाला,
पाचकः पाकशाला पाकशाले अस्ति. पाचकः पाकशाले, ओ
न,
पाचकः, पाचकः पाकशालाम् अस्ति, नो, पाचकः पाकशाले अस्ति.
अत्र किञ्चित् समीकरोतु भगिनि.
पाचकः पाकशालः,
अत्र पाकशा, यथा पाठशाला तथा एव पाकशाला, कलाशाला.
पाकशालायाम् अस्ति,
तत् समीचीनं, समीचीनं. छात्रः कलाशाला,
छात्रः कलाशालायां सन्ति.
छात्राः कलाशालायां सन्ति. उत्तमं, उत्तमम्. अनन्तरम् अत्र स्थालिका अन्नं,
स्थालिकायाम् अन्नम् अस्ति.
उत्तमं, तावदेव. इत्युक्ते अद्य वयं सप्तमीविभक्तेः उपयोगं कृत्वा कानिचन वाक्यान् रचितवन्तः. अन्तिमं वाक्यं वदतु भगिनि. चमसः चषकः,
चषके चमसः अस्ति.
उत्तमम्, उत्तमम्. अनन्तरं कन्दुकः कण्डोलः, कण्डोलः इत्युक्ते बास्केट्, बास्केट् बाल्. यदि बास्केट् बाल् क्रीडामश्चेत् तत्र कण्डोलः अस्ति, अपि च कन्दुकः अस्ति. वदतु.
कन्दुकः कण्डोले इट् गोस् इन्, कण्डोले अस्ति,
कण्डोले अस्ति,
परन्तु कण्डोले नास्ति. ऐ वास् ट्रैङ्ग् टु से कण्डोले, कण्डोले, कण्डोलमूलकं.
अत्र कण्डोले इत्युक्ते, कण्डोलः इत्युक्ते बास्केट्. यदि कण्डोल कन्दुकक्रीडा क्रीडामः तत्र
कन्दुकक्रीडां कण्डोलेन भवति.
तत्र कन्दुकक्रीडा
That's not a correct sentence.
कन्दुकक्रीडायां वयं किं कुर्मः? कन्दुकक्रीडायां वयं कण्डोले कन्दुकं स्थापयामः. तावदेव. अनन्तरं कति इति इत्यस्मिन् विषये वयं पूर्वमेव पठितवन्तः. कति इत्यस्मिन् विषये अत्र अभ्यासपुस्तके त्रयोविंशतितमे पुटे कति इति पदं दत्तमस्ति. कति इत्युक्ते किं?
हौ मेनि.
तत्र भवती एव पूर्वमेव वयं पठितवन्तः, भवती एव पठितवती पूर्वस्मिन् सप्ताहे. परन्तु अत्र एकः विषयः स्मर्तव्यः, इत्युक्ते अत्र विशेषसूचना दत्तमस्ति. तत् किं पठतु भगिनि?
उदाहरणं दृष्ट्वा
अत्र अधोभागे भवती सम्यक् अत्र भवती सम्यक् जानाति एव, वयं भवन्तः सर्वे अपि जानन्ति एव अस्मिन् पुटे किम् अस्ति इति. वयं पूर्वमेव कृतवन्तः, परन्तु अत्र विशेषसूचना अस्ति. तत्तु सूचना सर्वदा स्मर्तव्यः, स्मर्तव्या. वदतु.
कति अस्ति सम्यक् नास्ति, कति सन्ति वाक्यं सम्यक् अस्ति.
कति सन्ति सम्यक् अस्ति, उत्तमं. तदेव स्मर्तव्यः. अनन्तरं वयं जानीमः एव. अहं कानिचन प्रश्नान् पृच्छामि, भवती एव उत्तरं ददातु. अत्र घण्टायां कति निमिषाः सन्ति?
घण्टायां षष्टिनिमिषाः सन्ति.
उत्तमं. षष्टिः निमिषाः. दिने कति घण्टाः सन्ति?
दिने चत्वारिंशतिः.
किञ्चित् समीकरोतु.
विंशत् चत्वारिविंशत् घण्टाः
सन्ति. तत्र पदं किम् इत्युक्ते चतुर्विंशतिः.
ओके ओके.
एकस्मिन् दिने चतुर्विंशतिः घण्टाः सन्ति.
चतुर्विंशतिः.
अनन्तरं सप्ताहे कति दिनानि सन्ति?
सप्ताहे सप्तदिनानि सन्ति.
सप्तदिनानि सन्ति. मासे कति दिनानि सन्ति?
मासे त्रिंशत् दिनानि. बहवः समये त्रिंशत् दिनानि सन्ति.
उत्तमं. पक्षे कति दिनानि सन्ति?
पक्षे त्रिंशत् दिनानि एव सन्ति.
न पक्षे कति दिनानि सन्ति?
पक्षे पञ्चदशदिनानि सन्ति.
उत्तमं. पञ्चदशदिनानि, उत्तमं. वत्सरे कति मासाः सन्ति?
वत्सरे द्वादशमासाः सन्ति.
उत्तमं. वत्सरे कति दिनानि सन्ति?
वत्सरे वत्सरे 365 शतं.
अस्तु भगिनि. भूमा भगिनी, भवती प्रयत्नं करोति वा? संवत्सरे कति दिनानि सन्ति?
पञ्चाधिक षड्विंशत्यधिक त्रीणिशत.
अत्र अहं वदामि. अत्र अत्र किं वदामः इत्युक्ते त्रिशतत्यधिकपञ्चषष्टिः दिनानि. त्रिशतत्यधिकपञ्चषष्टिः. षष्टिः इत्युक्ते किम्?
60.
अधिक पञ्चषष्टिः
5 more than 60.
त्रिशतत्यधिक अथवा त्रिशतत्युत्तर पञ्चषष्टिः अथवा षट्षष्टिः यदि लीप् वर्षे षट्षष्टिः दिनानि सन्ति इत्युक्ते त्रिशतत्युत्तर उत्तर इति वदामश्चेत् अथवा अधिक रूपं रूपद्वयमपि समानमेव अर्थः समानः तत्र त्रिशतत्युत्तर पञ्चषष्टिः दिनानि सन्ति
पुनरेकवारं वदतु भगिनि
त्रिशतत्युत्तर
शतत्युत्तर
पञ्चषष्टिः
उत्तर अर्थम् आफ्टर् वर्ड्स् भगिनि
उत्तमम् उत्तमं तावदेव इत्युक्ते अथवा त्रिशतत्यधिक पञ्चषष्टिः दिनानि सन्ति अनन्तरं वयं सर्वे जानीमः एव भारतीयकालमानरीत्या वत्सराणां नामानि सन्ति कति नामानि सन्ति षष्टिः नामानि सन्ति षष्टिः नामानि सन्ति यथा प्रभव विभव तथा वदामः परन्तु एतानि सर्वाणि नामानि एकवारम् आगत्य पुनः षष्टिः वर्षाणाम् अनन्तरम् एकवारं तानि एव नामानि पुनरावृत्तानि भवन्ति इति वयं जानीमः एव अनन्तरम् अद्य अहम् आभरणानि तथा वस्त्राणि इति एकं करपत्रं प्रेषितवती सर्वे एकवारं पठन्तु तत्र कानिचन आभरणानि सन्ति अपि च वस्त्राणि सन्ति नूतनानि पदानि तत् करपत्रं पठित्वा वयं नूतनानि पदानि ज्ञातुं शक्नुमः यदि भवन्तः इच्छन्ति चेत् तत्र शीघ्रं पठति वा वंशीशुद्धा भगिनी आभरणानि तथा वस्त्राणि करपत्रम्
सर्वे महिला एव सन्ति
न न भगिनि तत्र कानिचन पदानि सन्ति केवलम् आस्वादार्थं वदतु
एकनिमिषं आभरणानि तथा वस्त्राणि माला कङ्कणम् अङ्गुलीयकं नासाभरणं नूपुरं ताटङ्कः कुळुपः कुळुपः इत्युक्ते किं भगिनि
अत्र दृश्यं दृश्यमस्ति
पुष्पहारः कण्ठभूषा कञ्चुकः कञ्चुकः चोलः इति चोलः कञ्चुकः समानपदं भगिनि
तदेव रूपं समानमेव दृश्यते चित्रं समानमेव दृश्यते
निचोलः अनिचोलः अर्धनिचोलः शाटिका युतकं वेष्टिः क्षम्यता वेष्टिः ऊरुकम् उपनेत्रं कटिपट्टः कटिपट्टः पादरक्षा शिरस्त्रम्
शिरस्त्रम् अत्र अहम् एकं वक्तुमिच्छामि यदि भवती जानाति चेत् बहुवचनरूपाणि वदतु भगिनि अत्र
मालाः स्त्रीलिङ्गे अस्ति मालाः कङ्कणं नपुंसकलिङ्गे अस्ति कङ्कणानि अङ्गुलीयकम् एव नपुंसकलिङ्गमस्तु अङ्गुलीयकानि नासाभरणं नपुंसकलिङ्गं नासाभरणानि नूपुरमेव
अत्र पश्यतु भगिनि नासाभरणम् इति पदमस्ति परन्तु बहुवचनरूपं किं भवति
नासाभरणानि
तत्र नासाभरणानि अन्तिमवर्णः केवलं दन्त्यनकारः एव तत्र परन्तु तत्र एकं सूत्रमस्ति इत्युक्ते अत्र रसाभ्यां नोणः सूत्रे तत्र एकस्मिन्नेव पदे रेफः अस्ति चेत् अपि तत्र णत्वं न भवति अत्र तत्र एकं सूत्रमस्ति यदि नकारः अन्तिमं नकारम् अन्ते अस्ति चेत् तत्र णत्वं न भवति अतः एव अत्र नासाभरणं नासाभरणानि दन्तिनकारः एव आगच्छति. तथा एव अत्र कङ्कणम् इति पदमस्ति. कङ्कणं
कङ्कणानि
उत्तमं. तदेव तथा एव चिन्तनं करणीयं. तथा एव चिन्तनं चिन्तयित्वा एव वयं वक्तुं शक्नुमः. तत्र निमित्तं नास्ति. निमित्तमेव नास्ति इत्युक्ते तत्र रेफः नास्ति, शकारः नास्ति, कृष्णरुकारः अपि नास्ति कङ्कणम् इत्यस्मिन् पदे. अतः एव कङ्कणं कङ्कणानि. तथा एव अङ्गुलीयकम् अङ्गुलीयकानि. नासाभरणं
नासाभरणानि.
नूपुरं
रेफः अस्ति, मूर्धन्यनकारः आगच्छति भगिनि. नूपुराणि
उत्तमम्. अत्र नूपुराणि भवति.
नूपुराणि आम् आम्.
इत्युक्ते अत्र किं वदामः इत्युक्ते अत्र निमित्तमस्ति. निमित्तमित्युक्ते कारणमस्ति. णत्वस्य कृते कारणमस्ति. परन्तु तत्र बाधकवर्णाः अपि न सन्ति. इत्युक्ते तत्र रेफः अस्ति, परन्तु यदि मकारः अस्ति चेत् तत्र मकारः बाधकवर्णः नास्ति. अतः तत्र णत्वं भवति.
नासावर्णं रेफः नकारः इति बाधकवर्णमेव भवति.
नकारः बाधकवर्णः तत्र.
आम् आं भगिनि.
किमर्थम् इत्युक्ते अत्र नासाभरणम् इत्यस्मिन् पदे निमित्तम् अथवा कारणमस्ति. कारणं किं? रेफः कारणम्. परन्तु तत्र बाधकवर्णः अस्ति. बाधकवर्णः णकारः. णकारः इत्युक्ते तत्र यदि कवर्गीयव्यञ्जनानि सन्ति चेत् अथवा पवर्गीयव्यञ्जनानि सन्ति चेत् णत्वं भवति. अथवा चवर्गः वा अथवा तवर्गः वा अथवा टवर्गः वा मध्ये त्रयः वर्गाः सन्ति. इत्युक्ते झझझझणि तथ दधन टठ डढण एतेषु पञ्चदशसु एकः अस्ति चेत् बाधकवर्णः अस्ति चेत् तदा णत्वं न भवति. अनन्तरं
नूपुराणि नकारः आगच्छति. ताटङ्कः पुल्लिङ्गः ताटङ्काः. कुडुपः पुल्लिङ्गः अस्ति. कुडुपाः. पुष्पाहारः एव पुल्लिङ्गः अस्ति. पुष्पाहाराः. कण्ठभूषा स्त्रीलिङ्गे अस्ति. कण्ठभूषे.
चिन्तयतु. कण्ठभूषाः.
क्षम्यतां. कण्ठभूषाः. कञ्चुकः पुल्लिङ्गः अस्ति. कञ्चुकाः. निचोलः एव पुल्लिङ्गः अस्ति. निचोलाः. अर्थनिचोलाः. शाटिकाः. युतकानि नि अस्ति. वेष्टिः
वेष्टयः. वेष्टिः पुंलिङ्गम्. वेष्टिः पुंलिङ्गम्. अतः इकारान्त पुंलिङ्ग. वेष्टयः. उत्तमम्.
ऊरुकम् ऊरुकाणि नकारः आगच्छति. रेफः अस्ति चेत् नकारः आगच्छति.
ऊरुकाणि अत्र निमित्तमस्ति. अपि च बाधकवर्णाः न सन्ति.
नास्ति. उपनेत्रम् उपनेत्राणि. त्रा इत्युक्ते संयुक्ताक्षरं. ता रेफः एव अस्ति. मकारः
अत्र
न बाधते.
अत्र पश्यतु नेत्रं नेत्रम् इत्यस्मिन् पदे तत्र संयुक्त संयुक्ताक्षरमस्ति तकारः रकारः रकारस्य रेफस्य अनन्तरं केवलं मकारः एव अस्ति तथा मकारः मकारः कस्मिन् वर्गे अस्ति व्यञ्जनं मकारः व्यञ्जनं मकारः कस्मिन् वर्गे अस्ति
कवर्गे
पवर्गे अस्ति यदि कवर्गे वा पवर्गे वा पवर्गस्य वा कवर्गस्य वा अक्षराणि सन्ति चेत् तत्र ते बाधकवर्णाः न तथा एव तत्र नत्रं नत्वं भवितुं शक्नोति
बाधकवर्णस्य किमर्थमस्ति भगिनि
बाधकवर्णः इत्युक्ते अत्र सम् आफ् द लेटर्स् आर् अलौड् टु स्टे देर् सम् अदर् वर्ड् सम् अदर् लेटर्स् आर् नाट् अलौड्
नाट् अलौड् इत्युक्ते बाधक
नाट् अलौड् इत्युक्ते बाधकवर्णाः कारणमस्ति परन्तु बाधकवर्णः नास्ति चेदेव तत्र णत्वं भवति बाधकवर्णाः सन्ति चेत् निमित्तम् अस्ति चेदपि तत्र कार्यं न भवति णत्वं न भवति अनन्तरं कटिपट्टः वदतु
कटिपट्टः कटिपट्टाः पादरक्षा पादरक्षाः शिरस्त्राणि
शिरस्त्राणि अत्र केवलम् एकमेव वाक्यं रचयतु अङ्गुली एकं योजयित्वा एकं वाक्यं रचयतु
सीता आञ्जनेय क्षम्यतां रामः रामः अहं चिन्तयामि भगिनि
किञ्चित् अत्र अहम् एकं वदामि अत्र भवती अङ्गुलीयकं धृतवती वा न वा वदतु
अहम् अङ्गुलीयकं धृतवती भगिनि
उत्तमं तदेव वाक्यम् अहम् अङ्गुलीयकं धृतवती
धृतवती
अहम् अनन्तरं कथां पठामः वा शीघ्रं नो चेत् विरमामः अत्र एका लघुकथा लघ्वीकथा अस्ति अत्र भूमा भगिनी भवती करोति वा अत्र कश्चन बालकः
एकनिमिषं क्षम्यते
भगिनी धृतवती वर्तमानकाले धारयामि अस्ति वा
उत्तमं वर्तमानकाले धारयामि धृतवती धृतवती भूतकालार्थे भूतकालार्थे तत्र तवतु प्रत्ययम् इति वदामः
कश्चन अस्ति सः अलसः अस्ति सः प्रतिदिनं समयेन विद्यालयं न गच्छति एकदा सः उद्यानं गच्छति तत्र एकं काकं पश्यति सः काकं क्रीडार्थम् आह्वयति काकः वदति मम समयः नास्ति इति अनन्तरं सः एकं शुकं पश्यति बालकः शुकं क्रीडार्थम् आह्वयति सः शुकः अपि मम समयः नास्ति इति वदति अनन्तरम् एकां पिपीलिकां पश्यति क्रीडार्थम् आह्वयति च तदा पिपीलिका अपि समयः नास्ति इति वदति बालकः सर्वं शृणोति तस्य लज्जा भवति सर्वे स्वस्वकार्ये निरताः इति जानाति सः विद्यालयं समयेन गच्छति सम्यक् पठति च
अवगतवती वा भवती स्वस्य वाक्यैः वदतु किञ्चित्
एकः बालकः अस्ति सः
अत्र अत्र किञ्चित् पश्यामः कश्चन इति पदमस्ति भवती जानाति वा कश्चन इत्युक्ते किं
कश्चन वी डोण्ट् नो हू इस् इट् नो नो
नाम
नाम
उत्तमं तदेव इत्युक्ते एकः बालकः अस्ति सः कः इति वयं न जानीमः तस्य नाम किं सः किं करोति इति वयं न जानीमः सः एकः बालकः तावदेव तत्र कश्चन कश्चन इति पदे तत्र कः योगः चन इति भागद्वयमस्ति पदद्वयम् अस्ति अत्र विसर्गस्य स्थाने तालव्यशकारः शकारादेशः भवति अतः कः योगः चन इत्युक्ते कश्चन इति रूपम् आगच्छति कश्चन बालकः अस्ति
भगिनि
अन्नोन् उत्तमम् अन्नोन् सः अलसः अलसः इत्युक्ते लेसि अत्र अलसस्य भावः आलस्यम् अलसस्य भावम् आलस्यम् इत्युक्ते सः किमपि कार्यं शीघ्रं कर्तुं न इच्छति सर्वदा सः
न कर्तुम् इच्छति
न कर्तुम् इच्छति सः सर्वदा मन्दं मन्दं चलित्वा कार्यं करोति इत्युक्ते तस्मिन् जाड्यमस्ति अथवा जडत्वम् अस्ति इति वदामः वयं सर्वे जानीमः एव एकः श्लोकः अस्ति या कुन्देन्दुतुषारहारधवळा या शुभ्रवस्त्रान्विता एकः श्लोकः सरस्वत्याः श्लोकः अस्ति श्लोकस्य अन्ते अस्ति निःशेषजाड्यापः निःशेषजाड्यापः इति वाक्यमस्ति तस्मिन् श्लोके जाड्यापः इत्युक्ते मयि यत्र जाड्यम् अस्ति जाड्यं दूरीकरोतु मयि यत् जडत्वमस्ति तं दूरीकरोतु इति वयं प्रार्थयामः अनन्तरम् अत्र प्रतिदिनम् इति पदमस्ति प्रतिदिनम् इति पदम् अव्ययपदम् अतः अव्ययम् इति कृत्वा तस्य लिङ्गवचनविभक्तिरूपाणि न भवन्ति सर्वदा प्रतिदिनम् इति पदं प्रतिदिनम् इव एव तथा एव तिष्ठति तस्य रूपपरिवर्तनं कदापि न भवति अनन्तरम् अत्र तृतीयं वाक्यमस्ति प्रतिदिनं समयेन विद्यालयं न गच्छति अत्र समयेन तृतीयविभक्तिरूपं किमर्थम् वदतु भगिनि वदतु अत्र यदि वयं सः प्रतिदिनं समये विद्यालयं न गच्छति इति अपि अस्ति परन्तु अत्र समयेन इति दत्तमस्ति समयेन किमर्थं तृतीयविभक्तिरूपम् इत्युक्ते अत्र सः सर्वदा समये नागच्छति इत्युक्ते यदार्थसमये सः प्रतिदिनं विद्यालयं समये गन्तुं गन्तव्यं समये गन्तव्यं परन्तु सः न कदापि गच्छति तथा अत्र समयेन विद्यालयं न गच्छति एकदा सः उद्यानं गच्छति उद्यानं गच्छति उद्यानं किमर्थं गच्छति सः
उद्यानं समयं
साधारणतया वयम् उद्यानं किमर्थं गच्छामः शोभा भगिनी
साधारणं क्रीडितुम् अथवा प्रशान्तमयवातावरणम्
उत्तमं तावदेव इत्युक्ते वयं सर्वदा क्रीडार्थं गच्छामः अथवा साधारणतया उद्याने पुष्पाणि फलानि अथवा बहवः जन्तवः सन्ति नो चेत् तत्र पक्षिणः सन्ति उद्याने सर्वं वयं द्रष्टुं शक्नुमः दर्शनार्थमेव वयं तत्र गच्छामः नो चेत् बालकाः सन्ति चेत् ते क्रीडार्थं गच्छन्ति उत्तमम् अनन्तरं सः किं करोति तत्र वदतु भगिनि काकं पृच्छति किं पृच्छति
क्रीडार्थम् आह्वयति
आह्वयति क्रीडार्थम् आगच्छति वा इति पृच्छति सः काकः किं वदति
पाकः मम समये नास्ति इति वदति. समयं
मम समयः नास्ति इत्युक्ते मया कर्तव्यानि कार्याणि बहूनि सन्ति, अतः मम समयः नास्ति. उत्तमं. कार्यनिरतः अस्ति. उत्तमं. सः कार्ये निरतः. अनन्तरं सः कं पृच्छति?
मुखं पश्यति. शुकमपि मम समयं नास्ति इति वदति.
मम समयः नास्ति इति वदति इति वदति. इत्युक्ते तेनापि कर्तव्यानि कार्याणि बहूनि सन्ति, अतः मम समयः नास्ति इति वदति. अनन्तरं
पिपीलिकां पश्यति, क्रीडार्थम् आह्वयति च. पिपीलिकापि मम समयः नास्ति, मम कर्तव्यमस्ति इति पिपीलिका अपि वदति.
वदति तदा किम् अभवत्?
सर्वं शृणोति च बहु लज्जा भवति तस्य.
तस्य लज्जा भवति इत्युक्ते सः लज्जितः अभवत्.
लज्जितः भवति.
संस्कृतभाषायां लज्जा इत्यस्मिन् विषये एकम् अन्यं पदमस्ति, ह्रीः इति वदामः.
ह्री
ह्रीः ह्रीः इत्युक्ते लज्जा. यथा श्रीः लक्ष्मीः तथा एव ह्रीः. ह्रीः इत्युक्ते लज्जा एव. अत्र ह्रीङ्कारी ह्रीङ्कारी इति नाम अपि अस्ति. ललितासहस्रनामं पठामश्चेत् तत्र ह्रीङ्कारी इति एकं पदम् एकं नाम अस्ति. किमर्थं ह्रीङ्कारी इति वदामश्चेत् तत्र कानिचन कार्याणि कर्तुं, कानिचन असमीचीनानि कार्याणि कर्तुं वयं लज्जिताः भवामः. इत्युक्ते टु डू सर्टन् थिङ्ग्स् नो वि शुड् फील् अशेम्ड्. अत्र ह्रीङ्कारी इति अस्ति. वदतु भगिनि, अनन्तरं किम् अभवत्?
सर्वे प्राणिनः स्वकार्यं कर्तुं निरताः.
स्वकार्येषु
निरताः.
निरताः
जानाति
बालकः. अवगच्छति. सर्वे जन्तवः स्वस्य कार्येषु व्यस्ताः अथवा निमग्नाः अथवा अत्र निरताः इति सः अवगतवान्. अवगच्छति. अनन्तरं तस्य दोषं किम् इति सः अवगतवान्. इत्युक्ते तस्य दोषस्य अवगमनं जातम्. इत्युक्ते तस्य अपराधः कः इति सः ज्ञातवान्. ततः परं सः किं करोति?
विद्यालयं समयेन गच्छति, सम्यक् पठति च.
उत्तमं, धन्यवादः भगिनि. कथायाः नीतिः वदतु वंशीसुधा भगिनी, अपि च शोभा भगिनी.
सर्वे जन्तवः जडं न भवति, सर्वदा स्वधर्मपालनं कर्तुं शक्नुवन्ति.
उत्तमं, शक्नुवन्ति.
जनाः एव जडं बाधक रूपम् अस्ति.
सम्यक्.
वयं सर्वे सर्वदा कर्तव्यं स्वधर्मं स्वकर्तव्यं पालनीयं करणीयम्.
उत्तमम्. अनन्तरं भूमा भगिनी. चिन्तयतु भगिनी, नो चेत् अत्र वंशी भगिनी वदतु.
बालकः जन्तवः पश्यात् अनन्तरं स्वकार्यं कर्तुं
स्वकार्यं कर्तुं उद्युक्ताः भवन्तु
उद्युक्ताः भवन्तु
इति एव नीतिः. अनन्तरं
यदा शोभा भगिनी वदति जन्तवः आलसः नास्ति, जनाः एव आलसः अस्ति, सम्यक् एव वदति भगिनी.
अत्र पश्यतु भगिनि, अत्र अत्र पश्यतु, यथा यथा शोभा भगिनी उक्तवती,
यथा
परन्तु यदा यदा इति वदामश्चेत् तत्र अर्थः भिन्नः भवति. कथं वक्तव्यं, कथं वक्तव्यं, यथा शोभा भगिनी उक्तवती, यथा वंशी सुधा भगिनी उक्तवती, तथा एव अहमपि वदामि.
यथा शोभा भगिनी वदति जन्तवः जन्तवः सर्वे अपि आलसः नास्ति,
जन्तवः
अलसाः नास्ति, मानवाः एव आलसाः सन्ति, परन्तु कथा एव नीति अस्ति.
अत्र पश्यतु भगिनि, अत्र अहम् एकं वक्तुम् इच्छामि. यद्भवती उक्तवती तत् सम्यक् एव, समीचीनरीत्या उक्तवती, सम्यक् प्रयत्नं कृतवती, परन्तु अहं वदामि साधारणतया वयं मानवाः एव यदा कदापि नियमपालनं कर्तुम् इच्छुकाः न भवामः, इत्युक्ते यदा कदापि वयमपि तथा आलसाः भवामः. किमर्थं तथा इत्युक्ते तत्र केवलम् आलसत्वम् एव कारणम्, तदेव हेतुः. इत्युक्ते अलसत्वं त्यक्तव्यम्, अलसाः मा भवन्तु, तदेव कथायाः नीतिः. इतोपि वदति वा, वदन्तु. तावदेव वा, भूमा भगिनी भवती वदति वा किमपि? वंशसुधा भगिनी वदतु.
काकः शुकः पिपीलिका, पिपीलिका एव सर्वे, पिपीलिका सर्वदा एव कार्यं कृतवती,
कार्यं करोति,
कार्यं करोति पिपीलिका एव. अहं बहूनि
बहूनि नीतिः अहं नीतिं ज्ञातवती. तदर्थमेव अद्य अहम् एकं श्लोकं पठितवती, तस्मिन्नपि तथा एव अस्ति, योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका, परन्तु तत्र श्लोकः अपि तदेव वदति. धन्यवादः सर्वेषां, नमस्कारः, धन्यवादः, अग्रिमे सप्ताहे मिलामः.
बहु बहु धन्यवादः, बहवः धन्यवादः भगिनि.
धन्यवादः भगिनि. आफ्टर् रेकार्डिङ्ग् प्लीज़् स्टे आन् लैन् भगिनि फ़र् अ सेकेण्ड्.
अस्तु भगिनि.